सर्वेभ्यो नमः। गतवर्गे वयं भूतकालस्य रूपाणि रूपस्य अभ्यासं तस्य केवलम् आरम्भं कृतवन्तः। तत्र अस् धातोः रूपं दृष्टवन्तः च। तत्र आसम् आसीत् इति तादृशः रूपाणि वयं गतवर्गे दृष्टवन्तः। एकवारं तदेव दृष्ट्वा भूतकालस्य अभ्यासं कुर्मः। अस्तु, तर्हि तत्र पेज् 77 मध्ये स्मः। तत्र कः एकवारं तत् पठति? अस्तु, उषा भगिनी पठति वा? तत्र अधोभागे पेज् 77 अधोभागे वर्तमानकालरूपम् अपि भूतकालरूपम्।
अस् धातोः रूपाणि वर्तमानकाले एकवचने प्रथमपुरुषः अस्ति सः सन्ति, मध्यमपुरुष असि स्तः स्थ, उत्तमपुरुषे अस्मि स्वः स्मः। भूतकाले आसीत् आस्ताम् आसन्, आसीः आस्तम् आस्त, आसम् आस्व आस्म।
हा, इति अस्ति। समीचीनं भगिनि, धन्यवादः। हा, एतदेव तत्र भूतकालरूपः रूपं कीदृशम् इति तदेव अस्माकं विषयः। तत्र अस्मिन् अध्याये किं भवति चेत् तत्र भूतकालस्य रूपद्वयम् अत्र दत्तमस्ति। प्रथमं सुलभं रूपम्, एतद् रूपं विशेषणम् अस्ति। तत्र सः गतवान्, सा गतवती इति तादृशरूपं भूतकालं सूचयति। किन्तु तत् क्रियापदं नास्ति तस्य, किन्तु सुलभम् अस्ति अतः तत् कृत्वा तस्य परिचयः दत्तः अत्र। तदनन्तरं भूतकालस्य क्रियापदं लकारः यत् वदामः तदपि तत्र दत्तमस्ति, लङ्लकारः इति। तत्र पठति एकम् अस्ति, पठितवान् इति तद् नामपदं भवति, विशेषणं भवति। अन्यत् अस्ति क्रियापदम् अपठत् इति, सः अपठत् इति। अस्तु, तत्र प्रथमतया गतवान् इति तादृशरूपं एकवारं पश्यामः। तस्य अभ्यासं कृत्वा अग्रे क्रियापदस्य लङ् लकारस्य परिचयः भवति। अस्तु, तर्हि तत्र अग्रिमपुटे पेज् 78 मध्ये तत्र शोभा भगिनी, तत्र वर्तमानकाले भूतकाले इति यत् अस्ति तदेकवारं तत्र वाक्यद्वयं पठति वा भगिनि?
आं महोदय। वर्तमानकाले युधिष्ठिरः नगरं गच्छति, भूतकाले युधिष्ठिरः नगरं गतवान्, दुर्योधनः अपि नगरं गच्छति, दुर्योधनः अपि नगरं गतवान्।
हा, इति अस्ति। तत्र वर्तमानकाले इत्युक्ते किम्?
वर्तमानकाले लट् लकारे महोदय,
इत्युक्ते इदानीं खलु? सः नगरं गच्छति, सः गच्छति। अपि भूतकाले इत्युक्ते
पूर्वम्?
पूर्वं तद् अभवत्, सः नगरं गतवान्। इदानीं न गच्छति, सः गतवान् इति। हा, तत्र गच्छति इति क्रियापदं, नगरम् इति किं
कर्तृपदं?
कर्मपदम् अस्ति। अत्रापि युधिष्ठिरः नगरं गतवान्, तत्र गतवान् इति क्रियापदं नास्ति किन्तु क्रियां सूचयति, गमनक्रिया। सः गच्छति अथवा गतवान् इति, ओ अस्तु सः गच्छति, किन्तु इदानीं न, पूर्वम् एतत् कार्यम् अभवत् इति वयं जानीमः। तत् सूचयति, क्रियापदं नास्ति किन्तु नगरं, तत्र विभक्ति द्वितीयविभक्ति एव भवति, कर्मपदमेव अस्ति अत्रापि। हा, युधिष्ठिर नगरं गतवान्, तत्र क्रियापदं भवति चेत् किं भवति रघुपतिमहोदय? तत्र अस्मिन् वाक्ये क्रियापदं नास्ति, युधिष्ठिरः नगरं गतवान्।
नगरं गतवान् अस्ति
अस्ति अस्ति इति क्रियापदम् अथवा
आसीत् गतवान् आसीत्
गतवान् आसीत् अथवा गतवान् अस्ति हा इति तत्र तत्र अगच्छत् इति तादृशरूपं नास्ति किमर्थं चेत् क्रिया तत्र गतवान् एव क्रियां सूचयति ओ सः गतवान् किन्तु तत्र युधिष्ठिरः अस्ति कीदृशयुधिष्ठिरः नगरं गतवान् युधिष्ठिरः इत्युक्ते वन् हू हेज़् गान् टु द टौन् दट् टैप् आफ् युधिष्ठिर इस् हियर् इति युधिष्ठिरः नगरं गतवान् अस्ति तत्र गतवान् इति किं भवति चेत् युधिष्ठिरपदस्य विशेषणं सत्यं भगिनि समीचीनं हा समीचीनं हा हा रघुपतिमहोदय अग्रे किमपि वक्तुमिच्छति चेत् वदतु
न अत्र गतवान् अस्ति तत्र सप्तविभक्त्याम् अपि भवति न तत् विशेषणम्
आमां सत्यं 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 तत्र युधिष्ठिरं गतवान् युधिष्ठिरं एतत् वक्तुं शक्नुमः सः युधिष्ठिरः नगरं गतवान् तं युधिष्ठिरं गतवन् नगरं गतवन्तं युधिष्ठिरम् अहं पश्यामि इति अतः तत्र सत्यं तत्र विभक्ति भवति सत्यं महोदय अस्तु अग्रे पठतु
तौ सर्वान् नगरजनान् पश्यतः तौ सर्वान् नगरजनान् दृष्टवन्तौ तौ सर्वे मिलतः तौ सर्वैः मिलतः तौ सर्वैः तौ सर्वैः मिलितवन्तौ
हा अतः किं भवति तत्र इदानीम् अस्माकं कार्यं किम् अस्ति भूतकाले कथं वाक्यानि रचनीयम् इति तत्र वर्तमानकालरूपं यदि जानीमः भूतकालरूपमपि कर्तुं शक्नुमः तत्र वाक्ये कस्य परिवर्तनं भवति कस्य पदस्य परिवर्तनं भवति
अत्र कर्तृपदापि च विशेषणस्य अथवा क्रियापदस्य
तत्र पश्यतु तौ सर्वान् नगरजनान् पश्यतः इति वर्तमानकाले अस्ति इदानीं भूतकाले किं भवति कस्य परिवर्तनं
पश्यतः तस्य
केवलं पश्यतः केवलं पश्यतः केवलं क्रियापदस्य एव परिवर्तनं भवति खलु तत्र नगरजनान् सर्वान् तौ किमपि तत्र परिवर्तनं नास्ति तदेव अस्ति वर्तमानकाले भूतकाले केवलं पश्यतः इति स्थाने दृष्टवन्तौ इति स्थापनीयमस्ति अस्तु अतः एतत् कोष्टकं दृष्ट्वा अथवा एतानि उदाहरणानि दृष्ट्वा किम् अवगन्तव्यं चेत् भूतकालरूपं सुलभतया कर्तुं शक्नुमः यदि किं जानीमः गच्छति इति स्थाने गतवान् इति रूपम् अपि पश्यतः इति स्थाने दृष्टवन्तौ इति तत्र दृष्टवन्तौ इति पश्यतः इति वचनं किं वेणुगोपाल महोदय पश्यतः इति क्रियापदं
पश्यत इत्युक्ते दृष्टवन्तौ इति
न पश्यतः इति तत्र क्रियापदम् अस्ति तत्र वचनं किं पुरुषः कः
पश्यनं
पश्यतः तौ पश्यतः इति अस्ति क्रियापदम् अस्ति
प्रथमपुरुष द्विवचनं
द्विवचनं समीचीनं महोदय हा अत्रापि दृष्टवन्तौ इति वचनं द्विवचनम् अस्ति द्विवचनम् अस्ति गतवान् एकवचनं दृष्टवन्तौ द्विवचनं इदानीं गतवान् इति पदस्य द्विवचनरूपं किं भवति
गतवन्तौ
इति भवति समीचीनं महोदय हा अग्रे पठतु महोदय
युधिष्ठिरः तौ मिलतः
तत्कृतं युधिष्ठिरः एकमपि
अस्तु युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति
वर्तमानकालरूपम् अस्ति.
वर्तमानकालरूपम्
इदानीं कस्य पदस्य परिवर्तनं करणीयं?
प्राप्नोति इति पदस्य.
इति पदस्य तद् केवलं तत् पदं परिवर्तयति, अन्यपदस्य परिवर्तनं न भवति. इदानीं
युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान्.
युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान्. तत्र प्राप्तवान् वचनं किं?
प्राप्तवान् एक प्रथमपुरुष एकवचनं.
इदानीं प्रथमपुरुष इति नास्ति. तत्र एतत् नामपदम् अस्ति, क्रियापदं नास्ति.
भूतकालमपि
नास्ति. तत् इदानीं तत्र युधिष्ठिरः गतवान्, युधिष्ठिरः प्राप्तवान्, किं भवति? प्राप्तवान् इति नामपदम् अस्ति. रामश, राम, देवः, तादृश, देवी इति तादृश, लता इति. अत्र प्राप्तवान् इति एकप्रथमाविभक्ति एकवचनरूपम् पुल्लिङ्गपदमस्ति. पुल्लिङ्गपदमस्ति. अग्रे अग्रे वदामः अस्मिन् विषये. अस्तु, अग्रिममपि वदतु महोदय.
दुर्योधनः एकमपि सज्जनं न प्राप्नोति. वर्तमानकाले अस्ति महोदय. दुर्योधनः एकमपि सज्जनं न प्राप्तवान् इति भूतकाले अस्ति.
भूतकाले अस्ति. परिवर्तनं किं भवति? प्राप्नोति इति स्थाने, इति स्थाने इति पदम् अस्ति, तस्य स्थाने किम् आगच्छति?
प्राप्तवान् इति आगच्छति.
प्राप्तवान् इति आगच्छति. समीचीनं महोदय. समीचीनम्. अस्तु, अग्रे भानुचितनी महोदय.
यथा दृष्टिः अस्ति तथा दर्शनम्. यथा दृष्टिः तथा सृष्टिः. यथा दृष्टिः आसीत् तथा दर्शनम्.
तत्र किं भवति? तत्र इदानीं अस्ति आसीत् इति क्रियापदरूपं दत्तमस्ति. तत्र तत्र
तथा दर्शनम् आसीत् इति महोदय,
तदपि न, तत्र किमपि नास्ति. तथा दर्शनं भवति इति
दृष्टिः आसीत् तथा दर्शनं,
दर्शनं भवति, तदपि कर्तुं शक्नुमः. तत्र वयं न जानीमः कस्मिन् समये एतद् वदामः इति न जानीमः महोदय. पश्यतु, दृष्टिः अभवत् किन्तु दर्शनं न प्राप्तं खलु. अस्मिन् समये दृष्टिः, यथा दृष्टिः आसीत् तथा दर्शनं भवति इति वक्तुं शक्नुमः.
किमपि तथा दर्शनं भवति न भवति किमपि
किमपि न जानीमः. अतः दृष्टिः आसीत्, अस्ति, द्वयमपि साधुः एव. अत्र अग्रिमवाक्यं त्यजामः महोदय. तत्र अस्ति आसीत् इति त्यजामः इदानीम्. अग्रे तत्र सा इति,
सा राज्ञी सेवते. राज्ञीं सेवितवती.
तत्र राज्ञीम् इति पदस्य विभक्ति का? कर्मपदं. समीचीनं महोदय.
कर्मपदम्
इदानीं तत्र तद् वर्तमानकाले अस्ति. अत्र पूर्वं गच्छति इति परस्मैपदी धातूनां वाक्यानि दृष्टवन्तः. इदानीम् आत्मनेपदी अस्ति, किन्तु आत्मनेपदी अपि तादृश भवति, एकवचनं. किन्तु इदानीं तत्र प्रथमबिन्दु अस्ति, इदानीं द्वितीयबिन्दु अस्ति, तयोः मध्ये कः भेदः?
तत्र सेवितवती इति तु स्त्रीलिङ्ग,
स्त्रीलिङ्गरूपं सा इति, सा इति भवति. इदानीं तत्र पूर्वं युधिष्ठिरः, तौ, दुर्योधनः इति आसीत्, किन्तु इदानीं दृष्टिः आसीत्, इदानीं सा इति भवति, त्रिस्त्रीलिङ्गे अस्ति. अतः तत्र रूपपरिवर्तनं भवति. सेवते इति स्थाने किम् आगच्छति?
सेवितवती
इति आगच्छति. सेवितवती, तत्र सेवितवती वचनं किम्?
वचनं तु एकवचनमेव
एकवचनमेव
सेवितवत्यौ सेवितवत्यः
हा नदी नद्यौ नद्यः तादृशं पदं समीचीनं महोदय सा सेवितवती तत्र सेवितवती विशेषणं भवति सा पदस्य सा राज्ञीं सेवितवती इति समीचीनं महोदय हा अस्तु अग्रे गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय क्षम्यतां महोदय
हा चिन्ता मास्तु भगिनि अग्रे पठति वा तत्र
सा केशप्रसाधनं करोति सा केशप्रसाधनं कृतवती
तत्र करोति इति स्थाने किम् आगतम्
करोति स्थाने कृतवती
कृतवती इति भवति हा तत्र कृतवती इति अस्ति तत्र वचनं किं कृतवती
कृतवती एकवचन स्त्रीलिङ्ग
स्त्रीलिङ्गपदम् अस्ति हा अस्तु समीचीनम् इदानीं तदेव वाक्यं वर्तमानकाले द्विवचने वदतु तत्र सा केशप्रसाधनं करोति इदानीं द्विवचने किं भवति
ते केशप्रसाधनं कुरुतः ते केशप्रसाधनं कृतवत्यौ
नद्यौ नदी नद्यौ कृतवत्यौ समीचीनं भगिनि समीचीनं अस्तु अग्रे
अग्रे सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती
अत्र इच्छति इति स्थाने किम् आगच्छति
इष्टवती
इष्टवती इति इदानीं तदेव बहुवचने एकवारं वदतु
ताः प्रतिफलनं न
प्रतिफलं न
क्षम्यता महोदय ताः प्रतिफलं न इच्छन्ति ताः प्रतिफलं न इष्टवत्यः
इष्टवत्यः नदी नद्यौ नद्यः इष्टवती इष्टवत्यौ इष्टवत्यः समीचीनं भगिनि समीचीनं नरेश महोदय नमस्कारः
नमस्कारः महोदय
अग्रे पठति वा महोदय
सा नम्रतया तिष्ठति सा नम्रतया स्थितवती तिष्ठति स्थाने स्थितवती
आगच्छति इदानीं तदेव वाक्यं बहुवचने एकवारं वदति वा
बहुवचनं साः नम्रतया तिष्ठन्ति साः नम्रतया स्थितवत्यः
स्थितवत्यः इति समीचीनं तत्र नम्रतया इति पदस्य विभक्ति जानाति वा महोदय
तृतीयविभक्ति
नम्रतया इति अस्ति तत्र वाक्ये एतत् एतानि उदाहरणानि दृष्ट्वा किम् अवगन्तव्यं कर्तृपदं वा कर्मपदं वा अन्यत् पदम् अन्यौ विभक्तौ किमपि भवतु किमपि अन्यत् पदं भवतु केवलं क्रियापदस्यैव परिवर्तनं भवति अन्यपदस्य परिवर्तनं न भवति विभक्तिपरिवर्तनं न भवति किमपि न भवति केवलं क्रियापदस्य स्थाने एतत् नूतनरूपम् आगच्छति समीचीनं महोदय अत्र अग्रे त्वम् इति
त्वं देशभक्तिगीतं गायसि त्वं देशभक्तिगीतं गीतवती
तत्र गीतवती इति अस्ति चेत् त्वम् इति तत्र त्वम् इत्युक्ते कः पुरुषः वा महिला वा
त्वं महिला
महिला अस्ति तत्र त्वं पुरुषः आसीत् चेत् किं भवति त्वं
देशभक्तिगीतं गीतवान्
इति भवति समीचीनं महोदय समीचीनम् अस्तु इदानीं उषा भगिनी अग्रे
युवां सर्वदा सत्यं वदतः युवां सर्वदा सत्यम् उक्तवन्तौ
इति अस्ति तत्र त्वम् इति वर्तमानकाले अपि भूतकाले एकवारं वदतु एकवचने इदानीं
त्वं त्वं सर्वदा सत्यं वदसि.
न न तदेव त्वम् इति उक्तवती, तस्य वर्तमानकालरूपम् उक्तवती, इदानीं भूतकालरूपं त्वं सर्वदा
सत्यं उक्तवान्.
तत्र त्वम् इति पूर्व उदाहरणं पश्यतु भगिनि.
त्वं
गीतवती गीतवती
त्रिलिङ्गे अथवा
तत्र भवत्याः उक्तवान् अस्तु
अथवा उक्तवती.
हा समीचीनं भगिनि, हा द्वयमपि साधु अस्ति, सत्यं समीचीनं भगिनि. अस्तु अग्रे
अग्रे यूयं भजद्वे यूयं भक्तवन्तः
इति अस्ति. तत्र यूयं भजद्वे इति अस्ति, तत्र त्वम् इति रूपं स्मरति वा?
त्वं भजसि
न न न तत्र आत्मनेपदी धातुः अस्ति.
भजद्वे भजद्वे वन्दते
हा वन्दते वन्देते वन्दन्ते
वन्दन्ते वन्दते भज भज वन्दते
हा तत्र हा वन्दते वन्देते वन्दन्ते वन्दसे वन्देते वन्दद्वे अतः त्वं
वन्दद्वे
न न न भजत् भजद्वे यूयं भजद्वे इति अस्ति. इदानीं त्वम् इति त्वं भज
भजद्वन्तः
न न न वर्तमानकालरूपं भगिनि, केवलं वर्तमानकालरूपम् एकवारं वदतु. तत्र तत्र भज भजते इति आत्मनेपदी रूपं, हा तत्र भजते भजेते
भजन्ते भजते
हा भजेते भजद्वे भजे भजावहे भजामहे त्वं भजसे
त्वं भजसे
हा इदानीं तत्र त्वं वर्तमानकालरूपं किं भवति, क्षम्यतां भूतकालरूपं किं भवति त्वं
भक्तवन्तः
इति पुल्लिङ्गे अस्ति, भक्तवती वत्यः इति भक्तवत्यौ इति स्त्रीलिङ्गे भवति, एवं यूयम भक्तवत्यः इति स्त्रीलिङ्गे भवति. न न तत्र त्वम् इति एकवचने अस्ति, हा तत्र हा गतवान् इति पुल्लिङ्गे वदतु किं भवति, गतवान् त्वं गतवान् अतः त्वं भक्तवान्, त्वं गतवती अतः त्वं भक्तवान् न न स्त्रीलिङ्गे
भक्तवती
त्वं भक्तवती इति तावदेव भगिनि, समीचीनं. हा अस्तु शोभा भगिनी अग्रे.
अहं भुञ्जे अहं भुक्तवान्
हा तत्र भुञ्जे इति तत्र किञ्चित् विशेषरूपम् इति मन्ये, अत्र अतः वयम् अस्मिन्नेव अभ्यासे प्रथमबिन्दु पुनरेकवारं कुर्मः भगिनि. तत्र रूपं किमस्ति चेत् तत्र गतवान् इति अस्ति खलु, तत्र शोभा भगिनि तत् एकवचने अस्ति. इदानीं तत्र युधिष्ठिरः इति त्यजामः, तत्र केवलं सः गच्छति सः गतवान् सः नगरं गच्छति सः नगरं गतवान्. इदानीं द्विवचने किं भवति बहुवचने किं भवति इति एकवारं सः इति उपयुज्य
सः तौ नगरं गच्छन्तौ
एकवारं वर्तमानकालरूपम् अपि भूतकालरूपं सः नगरं गच्छति सः नगरं
गच्छति
सः नगरं गतवान्
तौ तौ नगरं गच्छतौ
गच्छतः
सोरि गच्छतः गच्छतः तौ नगरं गतवान् गतवन्तौ
हा गतवन्तौ समीचीनं हा इदानीं ते
ते नगरं गच्छन्ति
हा
ते नगरं गतवन्तः
गतवन्तः समीचीनं हा समीचीनं भगिनि धन्यवादः हा रघुपतिमहोदय इदानीं तत्र तौ नगर सर्वान् नगरजनान् पश्यतः दृष्टवन्तौ इति अस्ति तत्र एकवचने बहुवचने तदेव वदतु महोदय
सः सर्वान् नगरजनान् पश्यति अपि च
इदानीं भूतकाले सः
भूतकाले सः सर्वान् नगरजनान् दृष्टवान्
इदानीं बहुवचने
बहुवचने ते सर्वान् नगरजनान् पश्यन्ति ते सर्वान् नगरजनान् दृष्टवन्तः
दृष्टवन्तः इति समीचीनं हा अस्तु वेणुगोपाल् महोदय अग्रिमं सौ इति अस्ति सः इति
सः सर्वै मिलति सः सर्वै मिलति
सर्वैः सर्वैः सः सर्वैः मिलति
सः सर्वैः मिलति सः सर्वैः
मिलितवान् मिलितवान् समीचीनं हा इदानीं ते
ते सर्वैः मिलितवन्
मिलति मिलति मिलतः मिलन्ति
मिलन्ति ते ते सर्वैः मिलन्ति ते सर्वैः मिलितवन्तः
ते सर्वैः मिलितवन्तः समीचीनं महोदय मिलितवन्तः समीचीनं महोदय बाणचित्रनी महोदय अग्रे तत्र सः इति उपयुज्य सः एकमपि दुर्जनं न प्राप्नोति
सः एकमपि दुर्जनं न प्राप्नोति एकमपि दुर्जनं न प्राप्तवान्
इदानीं तौ
एकमपि दुर्जनं न प्राप्तवन्तौ ते
न न प्राप्नोति इति क्रियापदम् अस्ति प्राप्नोति इति क्रियापदम् अस्ति प्राप्नोति प्राप्नुतः प्राप्नुवन्ति इति प्रायशः रूपम् अस्ति सत्यं वा रघुपति महोदय अथवा उषा भगिनि हा प्राप्नोति प्राप्नुतः प्राप्नुवन्ति वा रूपम्
आमाम्
अस्तु हा हा बालचेतनि महोदय इदानीं
तौ एकमपि दुर्जनं न प्राप्नुतः
प्राप्नुतः
महोदय तौ एकमपि दुर्जनं न प्राप्तवन्तौ
इदानीं
नामरूप प्राप्तवन्तौ स्तः महोदय
त्यजामः तत्र अस्ति त्यजामः प्राप्तवन्तौ इति तावदेव हा इदानीं तत्र
महोदय ते एकमपि दुर्जनं न प्राप्नुवन्तः
प्राप्नुवन्ति
ते एकमपि दुर्जनं न प्राप्तवन्तौ
इदानीं प्राप्तवन्तः ते बहुवचने
प्राप्तवन्तः
इदानीं वाक्यं किं ते एकमपि दुर्जनं न
प्राप्तवन्तः
हा समीचीनं महोदय अस्तु हा गीताञ्जलि भगिनि अग्रे तत्र हा तत्र सा राज्ञीं सेवते इति तत्र द्विवचने हा एकवचने द्विवचने बहुवचने हा
सा राज्ञीं सेवते सा राज्ञीं सेवितवती सा ते ते राज्ञीं सेवेते ते राज्ञीं सेवितवत्यौ
समीचीनं
ताः राज्ञीं सेवन्ते ताः राज्ञीं सेवितवत्यौ
सेवितवत्यः बहुवचने इदानीं ताः राज्ञीं सेवितवत्यः ताः राज्ञीं सेवितवत्यः. समीचीनं भगिनि. अस्तु, नरेश महोदय अग्रे.
सा केशत् साधनं करोति. सा केशत् साधनं कृतवती. ते केशप्रसाधनं कृतः. ते केशप्रसाधनं कृतवत्यौ. ताः केशप्रसाधनं कुर्वन्ति. ताः केशप्रसाधनं कृतवत्यः.
कृतवत्यः, समीचीनं. हा, अन्ये के के आगतवन्तः अत्र वर्गे? जनद्वयम् अस्ति, यदि वक्तुम् इच्छति चेत् कृपया वदतु. हा, नामानि उक्त्वा वदतु. अस्तु, शीतल् भगिनी, नमस्कारः. वक्तुम् इच्छति वा अद्य अत्र?
कुत्र?
पेज् 78 गीतासोपाने. अस्तु, इदानीं तत्र, इदानीं पेज् 79 गच्छामः. तत्र किं कृतवन्तः एतावत्? वयं रूपं कीदृशं भवति, भूतकालरूपं कीदृशं भवति इति दृष्टवन्तः, परिचयः जातः. इदानीं तत्र सम्यक्तया यस्य पदस्य परिवर्तनं, तत्र गच्छति स्थाने गतवान् इति भवति खलु, गतवान् इति, तस्य रूपं कीदृशं, तत् तद् एकवचने किं भवति, द्विवचने किं भवति, बहुवचने किं भवति इति इदानीं पश्यामः तत्र. अस्तु, तत्र अग्रे गीताञ्जलि भगिनी अग्रे पठति वा तत्र पेज् 79 मध्ये?
कोष्टकं पठामि महोदय.
हा हा, कोष्टके तत्र यतोदाहरणम् इति उक्त्वा,
यतोदाहरणं रिक्तस्थानानि पूरयत. तवतु प्रत्ययान्तं रूपं पुंलिङ्गे, लट् लकाररूपम् एकवचनं द्विवचनम् अपि च बहुवचनम्. पठति, पठितवान्, पठितवन्तौ, पठितवन्तः.
इच्छति अपि एकवारं पठतु भगिनि.
इच्छति, इष्टवान्, इष्टवन्तौ, इष्टवन्तः.
हा, इति रूपम् अस्ति. हा, धन्यवादः भगिनि. हा, तत्र तत्र किं पठितवान्, गतवान् अपि, मिलितवान्, प्राप्तवान् इति रूपं दृष्टवन्तः. तत्र प्रातिपदिकं यथा वयं वदामः, राम अकारान्त पुल्लिङ्ग रामपदम्, अथवा आकारान्त स्त्रीलिङ्ग लतापदम्, ईकारान्त स्त्रीलिङ्ग देवीपदम् इति वदामः. तत्र पदम् अस्ति, प्रातिपदिकम् अस्ति, पठति इति क्रियापदस्य परिवर्तनं भवति पठितवत् इति. तत्र पठति इति तत्र पठितवत् इति भवति, गच्छति इति गतवत् इति प्रातिपदिकम् इति वदामः, गतवत्. तत्र वत् इति आगच्छति, तदेव क्तवतु इति प्रत्ययान्तं. तत्र यत् वत् इति यद् पश्यामः, तदेव क्तवतु इति प्रत्ययम् उपयुज्य एतस्य पदस्य निर्माणं भवति. अतः तत् क्तवतु प्रत्ययम् अन्ते भवति इति कृत्वा, क्तवतु प्रत्ययान्तं रूपम् अपि एतत् पुल्लिङ्गे अस्ति. तत्र पठितवत् इति प्रातिपदिकं पुल्लिङ्गे किं भवति, तद् पठितवान्, पठितवत् इति पठितवान् इति भवति. तत्र कीदृशम् इत्युक्ते, भवत् शब्दः वयं जानीमः, भवत् इति, भवान् इति, भवान् कथम् अस्ति इति वदामः खलु, तादृशमेव पठितवान् इति. अथवा भगवत् शब्दः, तत्र भगवान् इति प्रथमविभक्ति एकवचनरूपं तादृशमेव भवान् भवन्तौ भवन्तः तत्र पठितवान् पठितवन्तौ पठितवन्तः इति पुल्लिङ्गे भवति. अग्रिमपुटे स्त्रीलिङ्गरूपमपि दत्तमस्ति, तदपि एकवारं वदामः. तत्र पठितवत् इति स्त्रीलिङ्गे प्रथमविभक्तिरूपं किं भवति, तत्र पठितवती इति भवति. तत्र ईकारान्तस्त्रीलिङ्गरूपं भवति पठितवती. नदी शब्दवत्, नदी शब्दं जानीमः, नदी नद्यौ नद्यः, अतः पठितवती पठितवत्यौ पठितवत्यः. अतः यदि वर्तमानकालवाक्यं दृष्ट्वा भूतकालरूपं भूतकालवाक्यं वक्तुम् इच्छामः, कस्य पदस्य परिवर्तनं भवति? तत्र वेणुगोपाल् महोदय, कस्य पदस्य परिवर्तनं भवति वाक्ये?
क्रियापदस्य,
केवलं क्रियापदस्य. अत्र क्रियापदस्य परिवर्तनं, क्रियापदस्य स्थाने वयं पठितवान् पठितवन्तौ अथवा पठितवन्तः इति तादृशं रूपं स्थापयामः यदि पुल्लिङ्गे अस्ति चेत्. एकवचने पठितवान्, द्विवचने पठितवन्तौ, बहुवचने पठितवन्तः. हा, यदि स्त्रीलिङ्गे स्त्रीलिङ्गकर्तृपदम् अस्ति चेत् पठितवती, पठितवत्यौ,
पठितवत्यः,
पठितवत्यः इति स्थापयामः तत्र. हा, अस्तु. शोभा भगिनी, तत्र यदि तत्र त्वम् अस्ति चेत्, त्वं गच्छसि इति अस्ति चेत् तत्र किम् अत्र परिवर्तनं गतवान् अथवा गतवती इति भवति वा, अथवा इदानीं त्वम् इति मध्यमपुरुषः अस्ति खलु?
आं महोदय.
हा, रामः गच्छति, रामः गतवान्. त्वं गच्छति, गच्छसि इति स्थाने भूतकालरूपे अन्यत् किमपि करणीयं वा, अथवा तदेव तदेव करणीयं वा?
तत्र लङ्लकारः एव भवति वा महोदय?
न न, हा हा, न भगिनि, यत् अत्र कुर्मः रूपं केवलं रामः गच्छति, रामः गतवान् इति वदामः. त्वं गच्छसि इति अस्ति चेत् तस्य भूतकालरूपं किं कीदृशं भवति?
त्वम् अपि
गतवान् अथवा गतवती?
त्रिषु लिङ्गेषु,
हा, त्रिषु लिङ्गेषु न, किन्तु यदि त्रिषु पुरुषेषु,
क्षम्यतां महोदय, त्रिषु पुरुषेषु
समानमेव.
त्वम् अपि गतवान्,
हा, त्वं गतवान्, रामः गतवान्, सा गतवती इति अस्ति, किन्तु त्वं गतवान्, अहं गतवान्, रामः गतवान् इति केवलं लिङ्गभेदः अस्ति. लिङ्गभेदः किमर्थं चेत् तत् विशेषणम् अस्ति. अतः तत्र स्त्रीलिङ्गे एकं रूपम् अस्ति, पुल्लिङ्गे एकं रूपम् अस्ति. अस्तु, अतः परिवर्तनं वर्तमानकाल वाक्यस्य परिवर्तनं करणीयं चेत् बहु सुलभः अस्ति. केवलम् एतस्य ज्ञानम् अपेक्षितम् अस्ति. पठितवान् पठितवन्तौ पठितवन्तः अथवा पठितवती पठितवत्यौ पठितवत्यः, तावदेव. अस्तु भगिनि, शोभा भगिनि, अग्रे तत्र करोति इति तस्य तत् एकवारं वदति वा तत्र?
करोति, कृतवान्, कृतवन्तौ, कृतवन्तः.
हा, कृतवन्तः इति अस्ति, समीचीनं. हा, तत्र तदेव पुनरेकवारम्, एषः करोति इति अस्ति चेत् एषः कृतवान्,
एषः कृतवान्, तौ, एतौ कृतवन्तौ, एते कृतवन्तः,
एते कृतवन्तः. समीचीनं भगिनि. हा, अस्तु, अग्रे उषा भगिनि.
गायति, गीतवान्, गीतवन्तौ, गीतवन्तः.
तत्र इदानीं तत्र एतद् पश्यामः, पुत्रः, हा, पुत्रः गायति, पुत्रः गायति. इदानीं पुत्रः गीतवान्,
पुत्रः गीतवान्
द्विवचने,
पुत्रौ गीतवन्तौ, पुत्राः गीतवन्तः,
पुत्राः गीतवन्तः, गीतवन्तः. समीचीनं भगिनि. हा, रघुपतिमहोदय, अग्रे.
हा महोदय, धरति धृतवान् धृतवन्तौ धृतवन्तः सैनिकः धृतवान् सैनिकः धृत सैनिकौ धृतवन्तौ सैनिकाः धृतवन्तः
हा सैनिकाः धृतवन्तः समीचीनं हा वेणुगोपाल् महोदय अग्रे भजति इति
भजति भक्तवान् भक्तवन्तौ भक्तवन्तः
हा इदानीं भक्तः हा भक्तः इति अस्तु छात्रः इति स्वीकुर्मः छात्रः
छात्रः छात्रः भक्तवान् भक्त्रौ भक्तवन्तौ छात्राः भक्तवन्तः
छात्राः भक्तवन्तः समीचीनं महोदय वनचित्रिणी महोदय अग्रे
महोदय पदं महोदय
क्रीडति इति
नाम पदं महोदय
प्रथमं क्रीडितवान् इति एकवारं वदतु तदनन्तरं नामपदम् उपयुज्य अस्तु इदानीं बालकः इति
बालकः क्रीडितवान् बालकौ क्रीडितवन्तौ बालकाः क्रीडितवन्तः
बालकः क्रीडितवन्तः समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि तत्र नयति इति
नयति नीतवान् नीतवन्तौ नीतवन्तः
तत्र सेवकः
सेवकः नीतवान् सेवकौ नीतवन्तौ सेवकाः नीतवन्तः
सेवकः नीतवन्तः नरेश् महोदय अग्रे तत्र गर्जति
गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः
सिंहः
सिंहः गर्जितवान् सिंहौ गर्जितवन्तौ सिंहाः गर्जितवन्तः
इति समीचीनं महोदय अस्तु अग्रे तत्र यद् दत्तमस्ति तदेव कुर्मः तत्र प्रायशः तत्र भ्रमति इति भ्रमितवान् इति अस्ति वा भ्रमितवान् इति अस्ति शीतल् भगिनी अग्रे भ्रमति इति भ्रमितवान् इति वदति वा तत्र अस्तु तत्र किं कः भ्रमति भिक्षुकः भिक्षुकः भ्रमितवान्
भिक्षुकः भ्रमितवान् भिक्षुकौ भ्रमितवन्तौ भिक्षुकः भ्रमितवन्तः
इति अस्ति समीचीनं भगिनि अस्तु अग्रे उषा भगिनी शृणोति इति
शृणोति श्रुतवान् श्रुतवन्तः
इदानीं तत्र किं किं नामपदं कविः श्रुत कविः श्रुतवान्
कविः श्रुतवान् कविः श्रुतवन्तौ कवयः श्रुतवन्तः
इति समीचीनं भगिनि अस्तु शोभा भगिनी अग्रे
श्रुतवान् अनन्तरं तपति तपति तपितवान् अस्ति वा महोदय
तत्र तप्तवन्तः
तप्तवन्तौ तप्तवन्तः
सूर्यः इति
सूर्यः तप्तवान् सूर्यौ तप्तवन्तौ सूर्याः तप्तवन्तः
सूर्यः तप्तवन्तः समीचीनं भगिनि रघुपति महोदय अग्रे
महोदय बोधयति बोधयति बोधितवान् बोधितवन्तौ बोधितवन्तः
इदानीं तत्र ऋषिः
ऋषिः बोधितवान् ऋषी बोधितवन्तौ ऋषयः बोधितवन्तः
बोधितवन्तः समीचीनं महोदय अग्रे वेणुगोपाल् महोदय
लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः.
इदानीं तत्र किं पण्डितः लिखितवान्
पण्डितः लिखितवान् पण्डितौ लिखितवन्तौ पण्डिताः लिखितवन्तः.
हा लिखितवन्तः. समीचीनं महोदय. हा बनचेतन महोदय इदानीं हसति इति.
हसति हसितवान् हसितवन्तौ हसितवन्तः
इति. हा तत्र हा किं सः सः इति.
सः सः हसितवान् तौ हसितवन्तौ ते हसितवन्तः.
समीचीनं. हा समीचीनं महोदय. हा अस्तु गीताञ्जलि भगिनी अग्रे.
नमति नतवान् नतवन्तौ नतवन्तः.
तत्र किं भक्तः.
भक्तः नतवान् भक्तौ नतवन्तौ भक्ताः नतवन्तः.
हा इति समीचीनं. हा नरेश महोदय अग्रे.
ददाति दत्तवान् दत्तवन्तौ दत्तवन्तः.
हा तत्र किं कुर्मः. तत्र गुरुः. हा गुरुः दत्तवान्
गुरुः दत्तवान् गुरु दत्तवन्तौ गुरवः दत्तवन्तः.
हा इति समीचीनं. हा समीचीनम् अस्तु अग्रे शीतल भगिनि. तत्र पृच्छति. हा इति. हा
पृष्टवान् पृष्टवन्तौ पृष्टवन्तः.
हा हा तत्र किं पृष्टवान् शिष्यः शिष्यः. हा शिष्यः पृष्टवान् इति. हा शिष्यः पृष्टवान्
शिष्यः पृष्टवान् शिष्यौ पृष्टवन्तौ शिष्यः पृष्टवन्तः
इति. हा समीचीनं. हा अस्तु समीचीनं भगिनि. अस्तु अग्रे रघुपति महोदय.
रूते उक्तवान् उक्तवन्तौ उक्तवन्तः.
तत्र किं पण्डितः.
पण्डितः उक्तवान् पण्डितौ उक्तवन्तौ पण्डिताः उक्तवन्तः.
हा इति समीचीनं. हा शुभो भगिनि.
एकः प्रश्नः अस्ति
महोदय.
उक्तवान् वच् धातुः अस्ति न महोदय.
हा सत्यं भगिनि. तत्र एतादृश प्रयोगः भवति. तत्र ये धातुद्वयम् अस्ति किन्तु उक्तवतु रूपं समानं भवति. तत्र एतादृशं भवति भगिनि. सत्यमेव. किन्तु तत्र प्रायशः किम् अस्ति चेत् ब्रूते इति तस्य पृथक् उक्तवतु रूपं नास्ति इति कृत्वा एतत् एव स्वीकृतम् इति मन्ये.
ब्रूते अपि वदति
इति अर्थे. इति अर्थे समानार्थकपदमस्ति. हा किन्तु समीचीनं प्रश्नः समीचीनं. हा तादृश बहुत्र भवति तत्र. हा
महोदय ब्रवीतवान् इति कुत्र न दत्तं ब्रवीतवान्
ब्रवीतवान् न जानामि भगिनि. हा द्रष्टव्यम् अस्ति. हा अस्तु. हा द्रष्टव्यम् अस्ति भगिनि. हा
ईक्षते महोदय.
किं किं भगिनि.
ईक्षते वदामि वा.
हा हा ईक्षते वदतु भगिनि. हा
ईक्षते ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः.
हा तत्र किं किं कुर्मः. तत्र अन्यत् किमपि पदं न
भवान्
भवान् हा अस्तु भवान् समीचीनम् अस्तु.
भवान् ईक्षितवान् भवन्तौ ईक्षितवन्तौ भवन्तः ईक्षितवन्तः.
हा सुलभम् अस्ति भगिनि. अस्तु तत् समीचीनमेव. हा अस्तु उषा भगिनि अग्रे.
लभते लब्धवान् लब्धवन्तौ लब्धवन्तः.
हा अस्तु तत्र किं हा एषः इति एषः लब्धवान्
एते लब्धवन्तौ एताः लब्धवन्तः
हा इति अस्तु लब्धवन्तः एते एते एते
पुल्लिङ्ग एतौ एते
एतौ एते हा उषा भगिनि
अहं स्त्रीलिङ्गे
हा किन्तु लब्धवान् इति अस्ति खलु हा इति समीचीनं हा अस्तु अग्रे वेणुगोपाल् महोदय
आस्थे आसीतवान् आसीतवन्तौ आसीतवन्तः
हा तत्र सः इति
सः आसीतवान् तौ आसीतवन्तौ ते आसीतवन्तः
ते आसीतवन्तः अस्तु
महोदय
आस्ते इत्युक्ते अस्ति इति पदं न न न आस्ते इत्युक्ते साट् डौन् इति मन्ये
उपवेशने
उपविशति
आस्ते अस्ति इति न आस्ते तत्र माता कुत्र माता गृहे आस्ते इति
आस्ते वन्दते वन्देते
हा सत्यं सत्यं सत्यम् आस्ते इति आत्मनेपदी क्रियापदं हा अस्तु इदानीं तत्र अत्र एव एकवारं तदेव अत्रैव एकवारम् एतत् अन्यत् अभ्यासम् अन्यः अभ्यासः अत्रैव कर्तुं शक्नुमः तत्र कः अग्रे वेणुगोपाल् महोदय उक्तवान् हा भानुचैतन्य महोदय तत्र पठति इति पठितवान् पठितवन्तौ पठितवन्तः इति अस्ति तत् पुल्लिङ्गरूपम् अस्ति स्त्रीलिङ्गरूपम् एकवारं वदतु महोदय तत्र
तदेव महोदय
पठति इति पठति इति स्त्रीलिङ्गति
पठति पठितवती पठितवत्यौ पठितवत्य
हा इति हा समीचीनम् इति हा गीताञ्जलि भगिनी इच्छति इति
इच्छति इष्टवती इष्टवत्यौ इष्टवत्यः
हा समीचीनं हा अग्रे तत्र उषा भगिनी
करोति कृतवती कृतवत्यौ कृतवत्यः
हा नरेश महोदय
गायति गीतवती गीतवत्यौ गीतवत्यः
हा शीतल भगिनी धरति इति स्त्रीलिङ्गरूपम् इदानीं धृतवत्यः नदी शब्दवत् समीचीनं भगिनि हा अस्तु अग्रे उषा भगिनी भजति
भजति भक्तवती भक्तवत्यौ भक्तवत्यः
हा शोभा भगिनी
क्रीडति क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः
हा रघुपति महोदय नयति
नयति नीतवती नीतवत्यौ नीतवत्यः
हा समीचीनं वेणुगोपाल् महोदय गर्जति स्त्रीलिङ्गरूपं
गर्जति गर्जितवत्यौ गर्जितवत्यः
गर्जितवती गर्जितवत्यौ गर्जितवत्यौ
समीचीनवत्यः
हा वनचित्री महोदय अग्रे भ्रमति
भ्रमितवती भ्रमितवत्यौ भ्रमितवत्यः इति
हा समीचीनं महोदय हा गीताञ्जलि भगिनी शृणोति इति
शृणोति श्रुतवती श्रुतवत्यौ श्रुतवत्यः
हा समीचीनं हा नरेश महोदय तपति इति
तपति तप्तवती तप्तवत्यौ तप्तवत्यः
हा शीतल भगिनी बोधयति बोधितवत्यः अस्तु समीचीनं हा तत्र तादृश अभ्यासं तत्र कर्तुं शक्नुमः स्त्रीलिङ्गरूपं किं किम् अस्ति इति हा इदानीम् अग्रिमपुटे गच्छामः तत्र स्त्रीलिङ्गरूपमेव
भवती अस्ति चेत् किं तवतु प्रत्यय अस्ति महोदय, तवतु प्रत्ययन्तरूपं
किं किं
भवति लैक् भवति अस्ति
हा तत्र भवति इति अहं चिन्तयामि भूतवान् इति प्रायशः
भूतवान्
इति प्रायशः अस्ति हा एकवारं द्रष्टव्यमस्ति भूतवान् इति वा भूतवान् इति पदमस्ति वा
न जानामि
अस्ति इति चिन्तयामि अनुभूतवान् अस्ति न महोदय
भूतवान् अस्ति
अनुभूतवान् अनुभूतवती
तदेव अस्ति भगिनि भूतवान् भूतवत्
न महोदय अभवत् अभवत् अस्ति
महोदय
अभवत् अन्यत् रूपम् अस्ति
भवति इति प्रदत्य तवत्तु प्रत्ययन्तरूपम्
अभवत् वा
अभवत् अभवत् अस्ति महोदय न महोदय मम पार्श्वे क्रिया ऐ मीन् संस्कृतभारतीयस्य करपत्रमस्ति महोदय गोस् गच्छति गच्छतु गतवान् गतवती गमिष्यति गत्वा गन्तुं भवति भवति बिकम् टु बि भवति भवतु अभवत् अभवत् भविष्यति भूत्वा भवितुम् अस्ति महोदय
हा तत्र अहं चिन्तयामि तत् प्रायशः तत्र मुद्रणदोषः प्रायशः अस्ति
अभवत् प्रत्यय न दत्तमस्ति तत्र
न तवत् प्रत्यय
न
अभवत् अभवत् इति तु क्रियापदम्
इति लङ्लकाररूपम् अस्ति
तत् क्रियापदम् अस्ति
कृदन्तरूपं नास्ति तत्र न दत्तवन्तः भूतवान् इति कोऽपि तस्य उपयोगं विरला अस्ति अतः न दत्तवन्तः इति अहं चिन्तयामि
सत्यं भगिनि 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 तत्र प्रायशः तत्र भवति नाम किन्तु अभवत् इति नामपदं नास्ति तद् अभवत् एकनिमिषः तत्र तद् अभवत् इति तादृशरूपम् एव अस्ति तत्र तद् अभवत् इति क्रियापदम् अस्ति किन्तु अत्र गतवान् इति गतवती इति नामपदम् अस्ति क्रियापदं नास्ति अत्र
लक्ष्मीभगिनी
सत्यं भगिनि तद् कोऽपि प्रेषि
महोदय पुष्पदीक्षित भगिन्याः पुस्तके अहं पश्यामि भू धातोः भूतवान् इति दत्तम् इति दत्तम्
भूतवान्
भगिनि अत्र तत्र संस्कृतभारती केवलं सुलभरूपस्य एव उपयोग भवति
तत्र
भूतवान् इति विरल
तत्र पश्यतु
सरलरूप एव संस्कृतभारत्या ते
स्वीकुर्वन्ति
स्वीकुर्वन्ति अतः
उषाभगिनीरूपं
न दत्तवन्तः
उषाभगिनी यद् भवती वदति तत् सत्यम् इत्युक्ते तत्र गतवान् इति सः गतवान् इति वक्तुं शक्नुमः स अगच्छत् अपि वक्तुं शक्नुमः द्वयमपि भूतकालरूपमेव अस्ति किन्तु सः अगच्छत् इति क्रियापदम् अस्ति सः गतवान् इति अस्ति चेत् गतवान् नामपदम् अस्ति विशेषणम् अस्ति किन्तु अत्र पश्यतु अस्मिन् पुटे अपि तत्र क्रियापदमपि दत्तमस्ति आसीत् इति अस्ति गतवान् इति अस्ति तत्र अस्मिन् अध्याये द्वयमपि दत्तमस्ति पेज् 82 पश्यतु तत्र अचलत् इति अस्ति तादृशरूपमेव अभवत् इति क्रियापदम् अतः तत्र साधारणतया वयं पश्यामः सः गतवान् इति वदामः, किन्तु यदि लङ्लकारं जानीमः सः अगच्छत् इति वक्तुं शक्नुमः, अतः अर्थभेदः नास्ति. किन्तु यदि तव तु रूपमेव तस्य अपेक्षणम् अस्ति चेत् तत्र अभवत् इति नास्ति, अन्यत् रूपम् किमर्थं चेत् तत्र अभवत् इति क्रियापदम् अस्ति.
समीचीनं वा?
भूतवान् इति अस्ति इति गीताञ्जलि भगिनी उक्तवती, दीक्षा पुष्पदीक्षितायाः पुस्तके दत्तम् अस्ति इति. कस्मिन् पुस्तके भगिनी एतद् गीताञ्जलि भगिनि?
कथं महोदय टैटल्?
टैटल् किं?
टैटल् शीघ्रबोधव्याकरणम्.
शीघ्रबोधव्याकरणम् अस्तु,
धन्यवादः महोदय.
हा, शीघ्रबोधव्याकरणम् अस्तु, व्याकरणम् अस्तु. अस्तु, अग्रे गच्छामः तर्हि. अग्रिमपुटे पेज् 80 तत्र, तत्र कः इदानीं पठति तत्र? नरेश महोदय पठति वा?
आं महोदय. यथोदाहरणं रिक्तस्थानानि प्रत्यन्तं रूपं स्त्रीलिङ्गे. पिबति, पीतवती, पीतवत्यौ, पीतवत्यः.
करोति,
कृतवती, कृतवत्यौ, कृतवत्यः.
अग्रे
वदति, उदितवती, उदितवत्यौ, उदितवत्यः.
हा, समीचीनं महोदय. हा, अस्तु, अग्रे तत्र कः? शीतल भगिनी अग्रे. पश्यति इति?
पश्यति, दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः.
हा, इति समीचीनं. हा, उषा भगिनी?
गच्छति, गच्छति, गतवती, गतवत्यौ, गतवत्यः.
हा, शोभा भगिनी?
क्षिपति, क्षिप्तवती, क्षिप्तवत्यौ, क्षिप्तवत्यः.
हा, रघुपति महोदय?
जपति, जपितवती, जपितवत्यौ, जपितवत्यः.
हा, समीचीनं. हा, वेणुगोपाल महोदय?
नयति, नीतवती, नीतवत्यौ, नीतवत्यः.
हा, वनचेतन महोदय?
महोदय, तिष्ठति लट्लकाररूपं, तस्य तावत् रूपम् अस्ति. स्थितवति, स्थितवत्यौ, स्थितवत्यः इति.
वेणुगोपाल महोदय, भवान् किम् उक्तवान्?
नीतवती.
अस्तु, समीचीनम्. अस्तु महोदय. हा, अस्तु. गीताञ्जलि भगिनी अग्रे.
तिष्ठति,
तत् कृतं, कूजति.
कूजति, कूजितवती, कूजितवत्यौ, कूजितवत्यः.
कूजितवत्यः, समीचीनं. हा, अस्तु, अग्रे नरेश महोदय?
पृच्छति, पृष्टवती, पृष्टवत्यौ, पृष्टवत्यः.
हा, शीतल भगिनी?
कथयति, कथितवती, कथितवत्यौ, कथितवत्यः.
हा, इति समीचीनं. हा, उषा भगिनी अग्रे. उषा भगिनी? हा,
शृणोति, शृणोति, श्रुतवती, श्रुतवत्यौ, श्रुतवत्यः.
हा, समीचीनं. शोभा भगिनी?
हसति, हसितवती, हसितवत्यौ, हसितवत्यः.
हा, रघुपति महोदय?
चलति, चलितवती, चलितवत्यौ, चलितवत्यः.
हा, वेणुगोपाल महोदय?
क्रीडति, क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः.
हा, बालचेतन महोदय?
गायति इति लट्लकाररूपस्य तावत् रूपाणि गीतवती, गीतवत्यौ, गीतवत्यः इति रूपाणि.
हा, गीताञ्जलि भगिनि
तपति तप्तवती तप्तवत्यौ तप्तवत्यः
हा इति समीचीनं हा नरेश महोदय इति शीतल भगिनी अग्रे
जानीते ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः
हा समीचीनं हा इदानीं तत्र एतत् कुर्मः तत्र उषा भगिनी इदानीं यतते इति यतते इति स्थाने प्रथमम् एकवारं वदतु तत्र यतते किं भवति बहुवचने यत्तवत्यः इति अस्ति तत्र यत्तवती इति तत्र तकारे द्वित्वम् अस्ति वा तत्र
आं महोदय यत्तवत्यः
हा अतः यत्तवती
यत्तवती यत्तवत्यौ यत्तवत्यः
हा इदानीं तत्र त्वम् इति उपयुज्य वदतु भगिनि त्वं युवां यूयं हा
त्वं यत्तवती
यत्तवती हा त्वं यत्तवती
युवां यत्तवत्यौ यूयं यत्तवत्यः
हा इति हा इदानीं शोभा भगिनी
लभते लब्धवती लब्धवत्यौ लब्धवत्यः
हा इदानीं त्वम् इति
त्वं लब्धवती युवां लब्धवत्यौ यूयं लब्धवत्यः
हा इति समीचीनं हा इदानीं किं कुर्मः तत्र सर्वत्र इदानीं पुनरेकवारं तत्र पिबति करोति इति तत्र इदानीं अहम् आमां वयम् इति उपयोगं कृत्वा वदामः किन्तु पुरुषः वदति चेत् पुल्लिङ्गरूपं महिला वदति चेत् स्त्रीलिङ्गरूपम् अस्तु
अस्तु महोदय
हा अस्तु रघुपतिमहोदय पिबति अहम् इति
अहम् ओके अहं पीतवान्
भवान् पुल्लिङ्गरूपं
अहं पीतवान् अहं पीतवान् आवां पीतवन्तौ वयं पीतवन्तः
हा इति अस्तु समीचीनं हा वेणुगोपाल् महोदय करोति अहम्
अहं करोमि
न
कृतवान् आवां कृतवन्तौ वयं कृतवन्तः
हा समीचीनम् इदानीं गीताञ्जलि भगिनी वदति
उक्तवती
न वदति इति उदितवती
अहम् उदितवती आवाम् उदितवत्यौ वयम् उदितवत्यः
हा इति अस्ति समीचीनं बालचित्रिणी महोदय पश्यति
अहं दृष्टवान् वयम् आवां दृष्टवन्तौ वयं दृष्टवन्तः
हा इति समीचीनं हा अग्रे नरेश महोदय
गच्छति अहं गतवान् आवां गतवन्तौ वयं गतवन्तः
हा गतवन्तः समीचीनं हा शीतल भगिनी जपति अहं शीतल भगिनी हा
अहं जपितवती वयं जपितवत्यः
हा इति समीचीनं हा अस्तु हा इदानीं तत्र प्रायशः तत्र अहम् अपि कृतवन्तः प्रायशः त्वम् इति बहु किमपि न कृतवन्तः भवतु नाम अस्तु इदानीं किञ्चित् अग्रे गच्छामः तत्र इदानीं तत्र यदस्ति तत्र हा एतादृशं ओ अस्तु हा वयम् एतद् कुर्मः तत्र किमपि अत्र यत् क्रियापदं दत्तमस्ति तत् उपयुज्य उत्तरं वदतु कोऽपि सर्वे अहं वदामि अत्र रघुपतिमहोदय भवान् नरेश महोदयं पृच्छतु किमपि किं कृतवान् इति सः किमपि वदति अत्र क्रियापदम् उपयुज्य
नरेश महोदय भवान् ह्यः किं पीतवान्
ह्यः अहं कर्तिगुलाब् पीतवान्
अस्तु इदानीं नरेश महोदय केवलं कृतवान् इति उपयुज्य वदतु पृच्छतु तत्र किमपि क्रियापदस्य तवतु रूपम् उपयुज्य उत्तरं भवति तत्र इदानीं नरेश महोदय तत्र वेणुगोपाल् महोदय अस्ति शोभा भगिनी अस्ति उषा भगिनी अस्ति गीताञ्जलि भगिनी अस्ति शीतल् भगिनी अस्ति भानुचितनि महोदय अपि अस्ति कमपि अथवा कामपि पृच्छतु
गीताञ्जलि भगिनी भवती अद्य प्रातःकाले किं कृतवती
अहं प्रातः काले योगासनं कृतवती
अथवा अस्तु भगिनि तत् समीचीनं किन्तु अन्यत् अपि क्रियापदम् उपयुज्य वक्तुं शक्नोति इदानीम् उत्तरं समीचीनं किन्तु अन्यत् क्रियापदमपि भवितुम् अर्हति इति तावदेव अस्तु भगिनि भवती पृच्छतु तत्र के के सन्ति इति जानाति भवती
शोभा भगिनी भवती ह्यः किं पचत्
अपचत् इति न जानीमः अपचत् इति इदानीं मास्तु अपचितवती अपचितवती इति नास्ति
अहमपि न जानामि भगिनि किन्तु पक्तवती उपयोगं करोमि अहं
पक्तव्य इति अस्ति
तर्हि समीचीनमेव
यदि महोदय भवान् उक्तवान् इत्युक्ते सम्यक् एव आसीत् अहं ह्यः चपातीम् अपि शाकानि पक्तवती
अस्तु भगिनी भवती एव पृच्छतु
उषा भगिनी ह्यः भवती कुत्र गतवती
अहं ह्यः लैफ् फिट्नेस्
व्यायामगृहे
व्यायामशालां गतवती
समीचीनं इदानीं उषा भगिनी भवती पृच्छतु
नरेश महोदय भवान् यः किं
श्रुतवान् क्रीडितवान् ज्ञातवान्
किं ज्ञातवान् यः
अहं तु किञ्चित् पुस्तकस्य कथां ज्ञातवान्
समीचीनम् इदानीं नरेश महोदय तत्र वेणुगोपाल् महोदयं पृच्छतु
वेणुगोपाल् महोदय भवान् कुत्र गतवान्
अहं ह्यः मन्दिरं गतवान्
समीचीनं महोदय. इदानीं वेणुगोपाल् महोदय, भानुचैतन्यमहोदयं पृच्छतु.
भानुचैतन्यमहोदय, भवान् ह्यः किं लिखति?
लिखितवान्.
लिखितवान्
ह्यः महोदय लिखितवान् महोदय ह्यः अहं कानिचित् उपनिषद् मन्त्राणि लिखितवान्.
समीचीनम्. अस्तु महोदय. बालचन्द्र महोदय, इदानीं शीतल भगिनीं पृच्छतु. भवती ह्यः किं किं कृतवती अथवा
भवती ह्यः कदा शेते?
शयितवती. हा, शीतल भगिनी
शयितवती.
समीचीनं, शयितवती. समीचीनं भगिनि. इदानीं शीतल भगिनी भवती पृच्छतु कमपि अथवा कामपि पृच्छतु.
भगिनि, भवती यः किं किं कृतवान्?
कृतवती, कृतवती,
कृतवती.
हा, उषा भगिनी, भवती ह्यः किं किं कृतवती?
अहं ह्यः वयनं कृतवती महोदय.
वयनम् इत्युक्ते
वीविङ्ग्?
वीविङ्ग्. अस्तु, अस्तु भगिनि. हा, अस्तु, समीचीनं. हा, अस्तु, भवती एव इदानीं पृच्छतु.
गीताञ्जलि भगिनी, भवती यः कुत्र गतवती?
अहं वने ह्यः वने गतवती.
इदानीं भवत्याः एव
वेणुगोपालमहोदय, भवान् ह्यः किं पठितवान्?
अहं ह्यः भगवद्गीता पठितवान्.
भगवद्गीतां, भगवद्गीतां,
भगवद्गीतां पठितवान्.
इदानीं वेणुगोपाल् महोदय, भवदेव.
नरेश् महोदय, प्रातःकाले भवान् प्रातःकाले किं पिबति? पिबितवान्, पीतवान्,
पीतवान्,
पीतवान्.
महोदय, प्रातःकाले अहं क्षीरं पीतवान्.
यदि यः अथवा या उत्तरं ददाति सः अथवा सा एव प्रश्नमपि पृच्छति.
शोभा भगिनी, भवती यः कां चलचित्रं
महोदय, अहं ह्यः किमपि चलचित्रं न दृष्टवती, किन्तु दूरदर्शने एकं कार्यक्रमं दृष्टवती.
समीचीनं. हा, यः उत्तरं ददाति अथवा या उत्तरं ददाति सः अथवा सा एव इदानीं प्रश्नमपि करोति.
शीतल भगिनी, भवती किं ह्यः अथवा बाल्यकाले किं क्रीडितवती?
अहं बालकाले क्रिकेट्
अस्तु भगिनि
क्रिकेट् क्रीडितवती वा कन्दुकक्रीडा कन्दुकक्रीडां
क्रीडितवती
समीचीनं भगिनि हा इदानीं भवती एव पृच्छतु
नरेश महोदय यः भवान् यः किं नीतवान्
भगिनि अहं ह्यः कानि पुस्तकानि नीतवान् उषा भगिनी भवती ह्यः कुत्र स्थितवती
कुत्र गतवती
स्थितवती
स्थितवती अहं यः गृहं
गृहे
अपि स्थितवती
गृहे एव स्थितवती इदानीं रघुपतिमहोदयं पृच्छतु भगिनि
रघुपति भवान् ह्यः किं क्रीतवान्
अहं ह्यः आपणतः शाकानि क्रीतवान्
क्रीतवान् समीचीनं भानुचेतनमहोदयं पृच्छतु महोदय
भानुचेतनमहोदय भवान् किमर्थं सदा हसितः यः किमर्थं हसितवान्
मया न अवगतं महोदय
हसितवान्
किमर्थं भवान् ह्यः हसितवान् इति प्रश्नः
भवतः
सत्यं सत्यं नास्ति चेदपि किमपि उत्तरं ददातु तत्र
भवतः मुखारविन्दं दृष्ट्वा अहं हसितवान्
अस्तु भवान् एव पृच्छतु इदानीं बालचित्रमहोदय
कः किं पृच्छामि महोदय
कमपि पृच्छतु तत्र सर्वे सन्ति अत्र शीतल भगिनी अस्ति वेणुगोपाल महोदय अस्ति गीताञ्जलि भगिनी अस्ति नरेश महोदय अस्ति उषा भगिनी अस्ति शोभा भगिनी
नरेश महोदय भवान् ह्यः किं कर्तुं चिन्तयति
चिन्तितवान् प्रायशः चिन्तितवान्
महोदय अहं बहु चिन्तनं कृतवान् परन्तु किमपि कार्यं न कृतवान्
चिन्तनमेव कृतवान्
शीतल भगिनी भवती दूरदर्शनं दृष्टवती ह्यः
न अहं दूरदर्शनं न दृष्टवती
ह्यः भवती दूरदर्शनं न दृष्टवती अस्तु भवती एव पृच्छतु
भवान् यः किं बोधितवान्
यः अहं विवेकचूडामणि बोधितवान्
विवेकचूडामणिः चूडामणिग्रन्थं ग्रन्थं बोधितवान् इति प्रायः अस्तु समीचीनं बालचित्रमहोदय भवान् एव
चूडामणिं बोधितवान्.
अस्तु अस्तु,
कर्मपदं तत्र
सत्यं सत्यं महोदय. अस्तु, अग्रे पृच्छतु महोदय.
ह्यः उषा भगिनी अस्ति महोदय?
न, उषा भगिनी अस्ति.
ह्यः उषा भगिनी कुत्र गतवती?
ह्यः कुत्र गतवती? कुत्र गतवती?
भवती त्रिवारम् एवमेव प्रश्नं
त्रिवारं
त्रिवारं
फिट्नेस् फिट्नेस्
अस्तु.
मम मित्रस्य गृहं
किं क्रीडितवती? किं क्रीडितवती?
मम मित्रस्य गृहं गतवती महोदय.
इदानीम् उषा भगिनी पृच्छतु.
रघुपति आचार्य, भवान् यः फार् युर् वैफ् लैक् तस् न पत्न्या किं दत्तवान् फार् युर्
किम् अस्ति किम् अस्ति पत्नी इति चतुर्थी विभक्ति
पत्न्या
पत्नी पत्नी इति देवी देवी किम् अस्ति देव्यै देव्यै नमः
देव्यै किं दत्तवान्?
हा, देव्यै इति अस्ति, पत्नी इति
पत्न्यै किं दत्तवान्?
अहं पत्नी गालीं दत्तवान्. सा नास्ति अत्र, अतः एवं वदा
महोदय
वदनस्मि.
ह्यः भवान् भोजनं कृतवान् वा?
अन्यगृहे कृतवान्.
इदानीं कः पृच्छति? हा, कोऽपि वेणुगोपाल् महोदयं पृच्छतु, गीताञ्जलि भगिनी पृच्छतु.
वदतु महोदय.
भगिनी, प्रातःकाले भवती किं नमति? को नमति? कः नमति?
कं 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 नमति?
कं नमति?
प्रातःकाले अहं गणेश भगवान् नीतवती
नमति.
हा, अस्तु अस्तु, भवती नीतवती. अस्तु, तत्र नमति इति प्रश्नः आसीत्.
न न न नमति नमति नतवती गणेश भगवान् नतवती.
हा, नमति इति नतवान् इति अस्ति. हा, तत्र गणेश भगवान् इति अस्ति, तत्र द्वितीयविभक्तिरूपम् अपेक्षितमस्ति भगिनि, गणेशम् अथवा गणेश भगवन्तम् इति.
गणेश भगवन्तं, हा, भवान् भवान्
भवान् इति भवन्तम् इति भगवान् भगवन्तं
भगवन्तं
नमितवती. हा, समीचीनं. हा, अस्तु, इदानीं गीताञ्जलि भगिनी.
शीतल भगिनी, ह्यः भवती किम् ईक्षितवती?
अहं ह्यः सुन्दरं चित्रम् ईक्षितवती.
अस्तु, इदानीं शीतल भगिनी प्रश्नं पृच्छतु, तदनन्तरं विरमामः. शीतल भगिनि कोऽपि पृच्छ, कमपि पृच्छतु अथवा कामपि पृच्छतु. शीतल भगिनि.
आम् आम् महोदय.
तत्र भानुचन्द्र मोदी अस्ति, नरेश् मोदी अस्ति, वेणुगोपाल् मोदी, गीताञ्जलि भगिनी, शोभा भगिनी, उषा भगिनी.
शोभा भगिनी, भवती किं लब्धवती?
अहं ह्यः एकं पुस्तकं लब्धवती.
समीचीनम्. अस्तु, इदानीं तत्र अभ्यासं जातम् इति मन्ये. लब्धवती, क्रीतवती, नीतवती, गतवती, सर्वं इदानीं भवन्तः सर्वे जानन्ति खलु, ज्ञातवन्तः सर्वे. अस्तु, इदानीं तत्र भूतकालरूपस्य प्रथमं रूपम् एतत् नामपदरूपम् अस्ति. अग्रिमवर्गे वयं क्रियापदरूपं लङ्लकारः इति यदस्ति तत् पश्यामः. अस्तु, इदानीं समयः जातः, विरमामः. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. नमस्कारः.
नमस्कारः. धन्यवादः महोदय.
नमस्कारः. शुभरात्रिः. शुभरात्रिः. नमस्कारः महोदय.
महोदय.